प्रजापतिम् हवामहे कविम् कवीना भुवस्वस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनस्वन्नोतिभिश्चिदसाधनम् प्रणोदेवी सरस्वती वाजेभिर्वाजिनीवति धीनामवित्रवतु ॐ शान्ता शुक्लाम् वरदरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये. आदित्य हृदयम् प्रेय ततो युद्धपरिश्रान्तम् समरे चिन्तयास्थितम् रावणम् जागृतो दृष्ट्वा युद्धाय समुपस्थितम् दैवतश्च समागम्य दृष्टमा भाग्यतोरणम् उपगम्या भगवद्रामा अगस्त्यो भगवान् ऋषिः राम राम महाबाहो शृणुगुह्यम् सनातनम् येन सर्वान् स्मरेद्वत्सा समरे विजयिष्यसे. आदित्य हृदयम् पुण्यम् सर्वशत्रुविनाशनम् जयावहम् जपे नित्यम् अक्षयम् परमम् शिवम् सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमम् आयुर्वर्धनमुत्तमम् लक्ष्मीमन्तम् समुद्यन्तम् देवासुरनमस्कृतम् पूजयसुरस्वन्तम् भास्करम् भुवनेश्वरम् सर्वदेवात्मकोशेष तेजस्वी लक्ष्मीभावनः एष देवासुरगुणान् लोकान्तातिगतस्तभिः एष ब्रह्मा च विष्णुश्च शिवस्कन्दप्रजापतिः महेन्द्रो धनुकालो यमसोमोपदाम्पतिः पितरो वसवस्याध्यो अश्विनो मरुतो मनः वायुरश्विन् प्रजाप्राणः ऋतुकर्ता प्रभाकरः आदित्य सविता सूर्यः खगपूषकमस्तिमान् सुवर्णसदृशो भानो स्वर्णरेता दिवाकरः हरिदश्वसहस्रार्चे सप्तसप्तर्मदेशिमान् तिमिरान्मदनस्वस्था शम्भो भाक्ताण्डान् शुभान् हिरण्यगर्भशिशिरस्तपनो भास्करो रविः अग्निगर्भो द्विते पुत्र शङ्करशिशिरानाम् व्योमनाथस्तमो भेदे युग्यजसमभारगः धनवृष्टिपां मित्रो विन्द्यम् वीति प्लवङ्गमः आतपे मण्डले मृत्यो पिङ्गलसर्वतापनः कविर्विश्व महात्तेज रक्तसर्वभवोद्भवः नक्षत्रगृहताराणा मादिपो विश्वभावनः तेजसां वितेजस्वी द्वादशात्मान् नमोऽस्तु ते. नमः पूर्वाय गिरिये पश्चिमाय अद्रिये नमः ज्योतिर्गणानां पतये दीनाधिपतये नमः. जयाय जयभद्राय हरियेश्वाय नमो नमः. नमो नमस्सहस्रांशो आदित्याय नमो नमः. नमो उग्राय वीराय सारङ्गाय नमो नमः. नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः. ब्रह्मैशानच्युतेशाय सूर्यादित्यवर्चसे भास्वते सुरोभक्षाय रौद्राय उपसे नमः. तमोग्नाय हिमग्नाय शत्रुघ्नाय मितात्मने कृतज्ञाय देवाय ज्योतिषाम् पतये नमः. तप्तशामीकराभाय वैष्णवे विश्वकर्मणे नमस्तोमभिनिग्नाय नवये लोकसाक्षिणे नाशेत्येष वैभूतम् तदेव सुवितु प्रभुः प्रायत्येष तपत्येष वर्षत्येष तपस्तिभिः एष सूक्तेषु जागर्ते भूतेषु परिनिष्ठितः एष एवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् वेदाश्च कृतुश्चैव कृतूनाम् फलमेव च यानि कृत्यानि लोकेषु सर्वा एष रविप्रभुः येनमावस्तु कृतेषु कान्त्यारेषु भयेश्च कीर्तयन् पुरुषः कश्चिन्नावधीतु राघवः पूजे स्वैरमेकाग्रो देवदेवम् जगत्पतिम् एतद्धि गुणितम् जत्वा युद्धेषु विजयिष्यसि. अस्मिन् क्षणे महाभावो रावणम् तम् वदिष्यति. एवमुक्त्वा तदागस्य जगामचेतागतम् एतच्छुत्वा महात्तेज नष्टशोको भवत् तदा धारया मासुप्रेत राघवः प्रेतात्मवान् आदित्यम् प्रेक्ष जप्त्वा तु परमर्षमुहाप्तवान् त्रियाचम्यशुचिर्भूत्वा धनुराधाय वीर्यवान् रावणम् प्रेक्षिष्टात्मा युद्धाय समुपात् सर्वयज्ञेन महता उदेतस्य धृतो भवेत्. अतर्विरमदेक्ष्यमाणाम् बुद्धिसम्मनुप्रदर्श्यमाणः निश्चलपत्सङ्ख्यम् विदित्वा सुरगणमध्यगतो सरेति.
ओम शांति शांति शांति।